संधि विषये अस्माभिः अधीतं परस्थं सन्निकर्ष संहिता वर्णोच्चारण समये अत्यन्तं सामीप्यं संहिता इति उच्यते। यदा संहिता भवति तदा क्वचित् वर्णव्यत्ययः भवति, स एव सन्धिरित्युच्यते उच्यते। कदा नित्या भवति, कदा विवक्षामपेक्षते इति एका कारिका विद्यते। संहितैकपदे नित्या नित्या धातूपसर्गयोः नित्या समासे वाक्ये तु सा विवक्षामपेक्षते। सन्धिकार्यं त्रिविधम् आदेशः आगमः लोपः। आदेशः इत्युक्ते नूतनवर्णः आगच्छति, पूर्वस्थितवर्णः निर्गच्छति। आगमः इत्युक्ते नूतनः वर्णः आगच्छति, पूर्वस्थितवर्णोऽपि भवति। लोपः प्रसक्तस्य अदर्शनं लोपसंज्ञं स्यात्। अदर्शनं लोपः इति सूत्रम् अधीतम् अस्माभिः संज्ञाप्रकरणे। एवं शत्रुवदादेशः मित्रवदागमः अदर्शनं लोपः इति अस्माभिः ज्ञायते। सन्धिभेदाः पञ्चसन्धिप्रकरणमिति उच्यते, परन्तु लघुसिद्धान्तकौमुद्यां प्रकृतिभावः अत्सन्ध्यामेव अन्तर्भवति। विसर्गसन्धिः स्वादिसन्धिः विसर्गसन्धौ भवति। इको एणचि इति प्रथमम् अत्सन्धिप्रकरणे प्रथमं सूत्रम्। इकः स्थाने यञ्च्यादचि संहितायां विषये, अत्र स्था वृत्तिः यदा दृश्यते तदा स्थाने इति पदं कथमागतम् इति प्रश्ने कृते तदा उच्यते स्थाने अन्तर षष्ठीस्थाने योगा इति। ततः पूर्वम् इक् नाम प्रत्याहारवर्णाः ई ऊर् लृ, तत्र अविधीयमानः इक् एषः, यतोहि अस्मिन् सूत्रे इक् न विधीयते, केवलं यण् विधीयते। अविधीयमानत्वात् इक् अच् एतेषाम् अष्टादशभेदाः वा द्वादशभेदाः ये भेदाः उक्ताः ते सर्वे गृह्यन्ते। अत्र यणः नाम यण् नाम इव् ऋल् विधीयमानः भवति, यतोहि अत्र यण् विधीयते, एतद्विधिसूत्रमस्ति। यण् विधीयते अनेन सूत्रेण यण्येव विधीयते, अतः तेषाम् इव् ऋल् इति एते वर्णाः एव गृह्यन्ते, न तु तेषां सवर्णभेदाः। एवम् इकः स्थाने इत्यत्र स्थाने इति पदं कथमागतं वृत्तौ इति प्रश्ने कृते षष्ठीस्थाने योग इति सूत्रं परिभाषासूत्रम् उपकरोति। अत्र इकः इति षष्ट्यन्तं पदं विद्यते। षष्ट्यन्तस्य कोऽर्थः पाणिनिना सूत्रस्थितविभक्तीनां प्रयोजनं परिभाषासूत्रेण कृतम्। ये परिभाषासूत्रं विधिसूत्रस्य उपकारको भवति। इदानीं षष्टिविभक्तिः यदा सूत्रे दृश्यते तदा अस्माभिः किं करणीयम् इति प्रश्ने कृते षष्टिस्थाने योग इति सूत्रानुसारेण यदि अनिर्धारितसम्बन्धः अस्ति चेत् इक् उच्चारणप्रसङ्गे यण् उच्चारणं कर्तव्यम् इति इकः स्थाने इति प्रयोगः क्रियते। एवमेव अस्माभिः इदानीम् इकः स्थाने यण् स्यात्, इक् नाम इक् यण् अच् एते सर्वे वयं एतत् सर्वं वयं जानीमः। तत्र युव् ऋल् इत्येते सर्वे वर्णाः आदेशाः भवन्ति, अपि च इक्वर्णस्य स्थाने इत्युक्ते सुधी प्लस् उपास्यः इति उदाहरणे सकारोत्तर उकारः धकारोत्तर ईकारः उपास्यः इत्यत्र यकारो उ उ अपि इक्वर्णः अस्ति। एवं त्रयः इक्वर्णाः सम्भवन्ति। एतेषां त्रयाणां स्थाने आदेशाः भवन्ति वा, कुत्र भवति आदेशः इत्युक्ते तदा सूत्रम् अस्ति तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रं परिभाषासूत्रमस्ति। एतदपि विधि उपकारं करोति। अत्र यंसंधि समीपम आगच्छति तस्मिन्ति विदृष्टे पूर्वस्य आगत्य पश्यति अच्छिति पदम सप्तमी विभक्तौ अस्ति। यदि सप्तमी विभक्तौ अस्ति चेत् तदा किं वदति तस्मिन्ति विदृष्टे पूर्वस्य आगत्य वदति पूर्वस्य कार्यं करोतु न तु परस्य। इदानीं सुधी प्लस उपास्यः इति पदद्वयं विद्यते। उपास्य इति परवर्णः, उपास्यः इति उपास्यः इत्यत्र उकारः पर उकारः। कस्य अपेक्षया पर उकारः इत्युक्ते धकारोत्तर ईकारस्य अपेक्षया पर उकारः। एवं सु सकारोत्तर उकारस्यापि पर उकारः। इदानीं तर्हि प्रश्नः आगच्छति कस्य आदेशः करणीयः इति प्रश्नः भवति। अत्र अग्रिम चार्ट् मध्ये अपि अस्ति इति प्लस् अपि इत्यत्र ईक्वर्णत्रयं विद्यते। अच् अच्परकत्वं वर्णद्वयस्य विद्यते। इदानीं कस्य इकारद्वयं विद्यते तत्र पूर्वे, कस्य आदेशः करणीयः इति। तदा उच्यते अव्यवहितपूर्वस्यैव आदेशः न तु व्यवहितपूर्वस्य इति। अव्यवहितः नाम न श्रूयते। श्रूयते वा इदानीम्? अस्तु, अव्यवहितः अव्यवहितपूर्वस्यैव आदेशः करणीयः न तु व्यवहितपूर्वस्य इति अस्माभिः तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रार्थेन ज्ञायते। सप्तमी निर्देशेन विधीयमानं कार्यं वर्णान्तरेण अव्यवहितस्य पूर्वस्य बोध्यम् इति सूत्रार्थः। एवं पूर्वस्य कार्यं करणीयम् अव्यवहितपूर्वस्य इति स्थिते तदा सुधी प्लस् उपास्यः इत्यत्र दकारोत्तर ईकारस्यैव आदेशः इति अस्माभिः निश्चितम्। इदानीं युवृल् इति ईकारस्य स्थाने चत्वारः यण्वर्णाः भवन्ति, न तु इकार पाणिनिना इको यणचि इत्यत्र इकारस्य स्थाने यकारः, उकारस्य स्थाने वकारः इत्यादि निर्देशः न कृतः। तर्हि अस्माभिः कथं ज्ञायते ईकारस्य स्थाने यकारादेशः एव कुतः, वकारादेशो वा रेफादेशो वा लकारादेशो वा कर्तुं शक्यते इति अस्माभिः चिन्त्यते। तदा उच्यते स्थानेऽन्तरतमः इति सूत्रम् आगच्छति, सहायं करोति। एतदपि परिभाषासूत्रम् अस्ति। यदा प्रसङ्गः भवति इत्युक्ते प्रसङ्गे सति सदृशतमः एव आदेशः भवति। सदृशतमः नाम सादृश्यं कतिविधम् इति अस्माभिः ज्ञातव्यम्। अस्माभिः दृष्टं तत्र सादृश्यं चतुर्विधम्। स्थानसादृश्यं, स्थानतः सादृश्यम्। इदानीम् इकारस्य स्थानं तालु यण्वर्णानां स्थानमपि अस्ति, उकारस्य स्थानम् ओष्टौ, ऋकारस्य स्थानं मूर्धा, एवं सर्वेषां स्थानानि विद्यन्ते। स्थानसाम्यं यत्र अस्ति तत्रैव स एव आदेशः भवति इति स्थानसादृश्यं वदति। एवम् अर्थतः सादृश्यमपि अस्ति। यदा आदेशः भवति कस्य शब्दस्य कः आदेशः इत्युक्ते आस्य शब्दस्य आसन्नादेशः इति, तद् अग्रे आगच्छति, तदपि पश्यामः। एवं गुणतः सादृश्यं कुत्रापि भवति। गुणं नाम ह्रस्वदीर्घादयः न ह्रस्वदीर्घादयः न तत्र गुणः नाम प्रयत्नः, बाह्यप्रयत्नः, अल्पप्राणः, महाप्राणः इत्यादिगुणाः, विवारश्वास घोष इत्यादिगुणाः। कदाचित् सन्धिप्रकरणे एव व्यञ्जनसन्धिप्रकरणे वाग्हरिः इति स्थिते किं भवति, हकारस्य पूर्वसवर्णसन्धिः इति उच्यते। हकारस्य सादृश्यवर्णः पूर्वसवर्णः कः इत्युक्ते गुणतः सादृश्यात् हकारस्य धकारः एव भवति, न तु अन्यः। यतोहि गकारः घकारः संवारः नादः घोषः अस्ति, हकारोऽपि संवारः नादः घोषः अस्ति। ಹಕಾರ ಮಹಾಪ್ರಾಣವರ್ಣ ಅಸ್ತಿ, ಘಕಾರ ಎವ ಮಹಾಪ್ರಾಣವರ್ಣ. ಅದ ಸಂವಾರ ನಾದ ಘೋಷ ಮಹಾಪ್ರಾಣಸ್ಯವ ಸ್ವೀಕಾರ. ಅತ ಗುಣತಃ ಸಾದೃಶ್ಯಾತ್ ಹಕಾರಸ್ಯ ಗಕಾರ ಆದೇಶ ಇತಿ, ತತ್ರ ಗುಣತಃ ಸಾದೃಶ್ಯಂ ಸ್ವೀಕ್ರಿಯತೆ. ಪ್ರಮಾಣತಃ ಸಾದೃಶ್ಯಮಪಿ ದೀರ್ಘಸ್ಯ ದೀರ್ಘ ಹರ್ಸಸ್ಯ ಹ್ರಸ್ವಃ ಇತ್ಯಾದಿ ಸ್ಥಳಮಪಿ ಅಸ್ತಿ. ಇದಾನೀಂ ಪ್ರಶ್ನಃ ಏವಂ ಅಸ್ತಿ, ಅತ್ರ ಸುಧೀಪ್ರ ಸುಪಾಸ್ಯಃ ಇತ್ಯತ್ರ ಸ್ಥಾನ ಸಾದೃಶ್ಯಾತ್ ಈಕಾರಸ್ಯ ಯಕಾರಾದೇಶಃ ಭವತಿ. ಯತ್ರ ಇದಾನೀಂ ಯತ್ರ ಅನೇಕ ವಿಧಮಾಂತರ್ಯಂ, ಇದಾನೀಂ ಆಂತರ್ಯ ಸಾದೃಶ್ಯಂ ಚತುರ್ಷು ಸಾದೃಶ್ಯು ಏತದೇವ ಇತಿ ಕಥಂ ಜ್ಞಾಯತೆ. ತದ್ ಅಸ್ಮಾಭಿಃ ಸಾದೃಶ್ಯಂ ಚತುರ್ವಿಧಂ ಇತಿ ಜ್ಞಾತಂ. ಏಕೈಕಸ್ಯ ಸಾದೃಶ್ಯಸ್ಯ ಅತ್ರ ಪ್ರಯೋಗಃ ಅಸ್ತಿ ವಾ ಇತಿ ದ್ರಷ್ಟವ್ಯಂ. ಕದಾಚಿತ್ ಕಿಂ ಭವತಿ, ಸಮೀಚೀನಃ ಪ್ರಶ್ನಃ ಸಹ. ಇದಾನೀಂ ಪ್ರಮಾಣ ಅತ್ರ ಪಶ್ಯಾಮಃ. ಇದಾನೀಂ ಮಿದೇರ್ಗುಣಃ ಇತಿ ಅಸ್ತಿ, ಮಿದ್ ಧಾತೋಃ ಇಕಃ ಸ್ಥಾನೇ ಗುಣ ಸ್ಯಾತ್ ಇತಿ ಷಷ್ಠಿ ಸ್ಥಾನೇ ಯೋಗ ಇತ್ಯನೇನ ಜ್ಞಾಯತೆ. ಇದಾನೀಂ ಗುಣಃ ಇತ್ಯುಕ್ತೆ ಆ ಏವ. ಇದಾನೀಂ ಸ್ಥಾನ ಸಾಮ್ಯಮಪಿ ಅಸ್ತಿ, ಅತ್ರ ಪ್ರಮಾಣ ಸಾಮ್ಯಮಪಿ ಅಸ್ತಿ. ಅರ್ಥ ಸಾಮ್ಯಂ ತು ನಾಸ್ತಿ, ಯತೋ ಹಿ ಅತ್ರ ಅರ್ಥಃ ಕದಾ ಅತ್ರ ಅರ್ಥಃ ನೈವ ಗೃಹ್ಯತೆ. ಪ್ರಮಾಣ ಸಾದೃಶ್ಯಂ ಸ್ಥಾನ ಸಾದೃಶ್ಯಂ ಸ್ಥಾನ ಸಾದೃಶ್ಯ ಪ್ರವೃತ್ತಿ ಅತ್ರ ವಿದ್ಯತೆ. ಸಾದೃಶ್ಯ ದ್ವಯಸ್ಯ ಪ್ರವೃತ್ತಿ ಕದಾಚಿತ್ ಸಾದೃಶ್ಯತ್ರಯಸ್ಯ ಪ್ರವೃತ್ತಿ ಕುತ್ರ ಇತಿ ನ ಜ್ಞಾಯತೆ. ವಾಗ್ ಹರಿಹಿ ಇಕೋ ಎಣಚಿ ಸೂತ್ರೇ ನಾಸ್ತಿ ವಾ ಕಿಂ, ವಾಗ್ ಹರಿಹಿ ಇಕೋ ಎಣಚಿ ಸೂತ್ರೇ ನ ಅಸ್ತಿ ವಾ. ಹಾ, ವಾಗ್ ಹರಿಹಿ ಇತಿ ಅನ್ಯತ್ ಸೂತ್ರಂ. ವಾಗ್ ಹರಿಹಿ ಇತಿ ಪೂರ್ವಸವರ್ಣ ಸಂದೇಹ ನಿಯಮ, ಪೂರ್ವಸವರ್ಣ ಸಂದೇಹ ಉದಾಹರಣ ತತ್ ವಾಗ್ ಹರಿಹಿ ಇತಿ. ಇಕೋ ಎಣಚಿ ಸೂತ್ರೇ ತದ್ ನಾಗಚ್ಚತಿ, ಪರಂತು ಮಮ ಏವಂ ಉಚ್ಯತೆ. ಇಕೋ ಎಣಚಿ ಇತ್ಯತ್ರ ವಾಘರಿಹಿ ಇತಿ ಸೂತ್ರಂ ತು ಜಯೋಃ ಅನ್ಯತರಸ್ಯಾಮ್ ಇತಿ ಪೂರ್ವಸವರ್ಣ ಆದೇಶಃ ಉಚ್ಯತೆ. ತತ್ರ ಸ್ಥಾನ ಸಾದೃಶ್ಯಂ ಅಸ್ಮಾಭಿಃ ಕ್ರಿಯತೆ ಚೇತ್ ಸ್ಥಾನ ಸಾದೃಶ್ಯೇನ ಕಃ ವರ್ಣಃ ಆದೇಶಃ ಭವತಿ ಇತಿ ಅಸ್ಮಾಭಿಃ ನಿರ್ಣೇತುಂ ನ ಶಕ್ಯತೆ ಕದಾಚಿತ್. ಅತ್ರ ತು ನ ಶಕ್ಯತೆ ಏವ. ತದಾ ಅಸ್ಮಾಭಿಃ ಪ್ರಥಮಂ ಸ್ಥಾನ ಸಾದೃಶ್ಯಂ ದೃಶ್ಯತೆ, ಅನಂತರಂ ಪ್ರಮಾಣ ಸಾದೃಶ್ಯಂ, ಅನಂತರ ಗುಣ ಸಾದೃಶ್ಯಂ ಇತ್ಯಾದಿ ದೃಷ್ಟ್ವಾ ಕದಾಚಿತ್ ನಿರ್ಣಯ ಕ್ರಿಯತೆ. ಯದಿ ಚತ್ವಾರಃ ಚತ್ವಾರಿ ಸಾದೃಶ್ಯಾನಿ ಅಪಿ ಯದಿ ಆಗಚ್ಚಂತಿ ಏಕಸ್ಮಿನೇವ ಉದಾಹರಣೆ, ತದಾ ವ್ಯಾಕರಣ ನಿಯಮಃ ವದತಿ ಸ್ಥಾನ ಸಾದೃಶ್ಯಂ ಸ್ವೀಕರೋತು ಇತಿ. ಇದಾನಿಂ ಸುಜಾತಾ ಭಗಿನಿ, ಪ್ರಶ್ನಸ್ಯ ಉತ್ತರಮಾಗತಂ ವಾ? ಹಾ, ಏವಂ. ತರ್ಹಿ ಅತ್ರ ಪಶ್ಯತು ಮಿದೇರ್ಗುಣಃ ಇತ್ಯತ್ರ ಸಾದೃಶ್ಯ ದ್ವಯಂ ವಿದ್ಯತೆ. ಇದಾನಿಂ ಪಾಸಿಬಿಲಿಟಿ, ಲೆಟ್ ಅಸ್ ಲುಕ್ ಅಟ್ ದ ಪಾಸಿಬಿಲಿಟಿ ಆಫ್ ಆಲ್ ದ ಫೋರ್ ಸಾದೃಶ್ಯಾಸ್ ಇನ್ ಮಿದೇರ್ ಗುಣ. ಪ್ರಥಮಂ ಸ್ಥಾನ ಸಾದೃಶ್ಯಂ ಸ್ವೀಕುರ್ಮಃ. ಇಕಾರಸ್ಯ ಸ್ಥಾನಂ ಉಕಾರಸ್ಯ ಸ್ಥಾನಂ ಇತ್ಯಾದಿ ಭವತಿ. ಇದಾನಿಂ ಪ್ರಮಾಣ ಸಾದೃಶ್ಯಮಪಿ ಅತ್ರ ಅಸ್ತಿ. ಅರ್ಥ ಸಾದೃಶ್ಯಂ ಅಸ್ತಿ ವಾ ಮಿದ್ ಇತ್ಯ ಮಿದ್ ಧಾತೋಃ ಗುಣ ಸ್ಯಾತ್. ಇದಾನಿಂ ಮಿದ್ ಧಾತೋಃ ಇಕ ಸ್ಥಾನೆ ಗುಣ ಸ್ಯಾತ್, ವರ್ಣಸ್ಯ ಅರ್ಥಃ ನಾಸ್ತಿ ಅತ್ರ. ಇಕ್ ನಾಮ ಇಕ್ ಪ್ರತ್ಯಾಹಾರ ವರ್ಣಃ ತೇಷಾಂ ಅರ್ಥಃ ನಾಸ್ತಿ ಇದಾನಿಂ. ಅತಃ ಅತ್ರ ಅರ್ಥ ಸಾದೃಶ್ಯಸ್ಯ ಪ್ರವೃತ್ತಿ ನ ಭವತಿ. ಏವಮೇವ ಗುಣಸಾದೃಶ್ಯಸ್ಯಾಪಿ ಪ್ರವೃತ್ತಿ ನಾಸ್ತಿ. ಯತೋ ಹಿ ಸ್ಥಾನ ಕದಾಚಿತ್ ಕಿಂ ಭವತಿ ಗುಣಸಾದೃಶ್ಯಂ ನಾಮ ಅಲ್ಪಪ್ರಾಣಾದಿ ನಿಶ್ಚಯಃ. ಅತ್ರ ಗುಣಃ ಭವತಿ ಇಕ ಸ್ಥಾನೆ. ಇಕಃ ಇತ್ಯುಕ್ತೆ ತತ್ರಾಪಿ स्वरवर्णाः सन्ति, आदेश आदेशे अपि स्वरवर्णाः एव सन्ति, तत्र कथं गुणः अल्पप्राण श्वास अघोष इत्यादि गुणाः न भवन्ति। अतः अस्माभिः गुणसादृश्यं गुणसादृश्यपर्यन्तं नैव गम्यते। यदा स्थानसादृश्यादिष्टसिद्धिः न भवति तदा गुणसादृश्यं प्रति गम्यते अस्माभिः। एवं स्थानेऽन्तरतमः इति सूत्रेण किम् आगच्छति, अन्तरतमः अस्माभिः स्वीकर्तव्यः। अतः इदानीं षष्ठीस्थाने योग इत्यनेन ईकारस्य अनेके आदेशाः प्राप्ताः। अनेकेषु आदेशेषु प्राप्तेषु कः वर्णः स्वीकर्तव्यः इति संशयः यदा भवति तदा स्थानेऽन्तरतमः इति परिभाषा आगत्य उपकरोति। प्रसङ्गे सति सदृशतमं स्वीकरोतु इति उपकरोति। तदा किं भवति, इकारस्य यकारः एव स्थानसादृश्यात् यकारः एव स्वीक्रियते। इदानीं सुध्युपास्यः इति रूपसिद्धिः भवति। तदा किं भवति, अनचि च इति एकम् अन्यत् सूत्रमस्ति, अचः परस्य यरो द्वे वा स्तः न तु अचि इति अनचि च इति सूत्रं वदति। अनचि च इत्यत्र न अचि अनचि च इति अव्ययं भवति, न अच् अनच् तस्मिन् अनचि च इति नञ् समासः अत्र। इत्युक्ते अत्र अचः परस्य अच्वर्णः भवेत्, अचः परस्य यर्वर्णः भवेत्, यर्वर्णस्य द्वित्वं भवति, द्वे वा स्तः इत्युक्ते द्वित्वं भवति, वा इति स्वीकारेण किं भवति, विकल्पेन भवति इति धकारस्य द्वित्वम्। इदानीम् अत्र पश्यतु, अत्र पश्यन्तु, सु उ ध, अत्र ध धकारः यर्वर्णः, यर्वर्णस्य द्वित्वं भवति अनचि च इति सूत्रेण। कदा भवति, अच्वर्णपरकः यदि अस्ति चेत्, अच्वर्णपरकत्वं भवेत्, अनच्वर्णपरकत्वं धकारः अपि धकारस्य धकारोत्तरवर्णः अच् न भवेत्, धकारोत्तरवर्णः यकारः अच् नास्ति, अतः द्वित्वं भवति। द्वित्वाभावपक्षे इदानीं द्वित्वपक्षः एकः, द्वित्व अभावपक्षः एकः। द्वित्वपक्षे सु धु ध यु उपास यु उ उपास्यः इति भवति। द्वित्वाभावे तु सु ध य, द्वित्वं यदा न भवति तदा रूपद्वयम् इदानीं सम्पन्नम्। इदानीं किं भवति, झलां झष् झषि इति सूत्रं कार्यं करोति। अत्र अस्माभिः सूत्रस्य प्रवृत्तिः कथं भवति, इदानीं कदाचित् सूत्रवत् अस्माभिः भवितव्यम् इति ज्येष्ठाः वदन्ति। सूत्रं किं करोति, स्वयं गत्वा सर्वत्र कार्यं करोति, वयं तु आह्वानम् इत्यादिकम् अपेक्षां कुर्मः, अस्माभिः अपेक्षा क्रियते, ते मह्यं न आहूतवन्तः, अहम् अत एव अहं तत्र न गच्छामि, यदि गच्छामि चेदपि अहं तत्र कुत्रापि उपविशामि, किमपि कार्यं न करोमि, तैः अहं न बोधितः कार्यं कर्तुम्, अहं न सूचितः कार्यं कर्तुम् इति मनसि निधाय एवमेव उपविशन्ति, विना यद्यपि वयं कार्यं जानन्ति तथापि कदाचित् कार्यं न कुर्वन्ति, यतोहि अस्माकं लज्जा भवति, नो चेत् अहङ्कारः भवति, नो चेत् किमपि भावः भवति। सूत्रं तु तदा तादृशं न। किं करोति सूत्रं, तत्र चतुस्सहस्रसूत्राणि सन्ति, यस्य प्रवृत्तिः अत्र भवति सूत्रं झटिति आगच्छति, आह्वानं विना आगत्य कार्यं करोति, आह्वानं विना आगच्छति, उपतिष्ठति तत्रैव आगत्य एतद् मम कार्यम् इति स्वीकृत्य स्वयं कार्यं करोति। अन्येषां तत्र यदि वैयाकरणः तत्र सूत्रं विस्मरति चेदपि कार्यं करोति। एवं रीत्या अस्माभिः ಚಿಂತನೀಯಂ ಅಸ್ಮಾಭಿಃ ಜೀವನೆ ಅಪಿ ಸೂತ್ರವತ್ ಭವಿತವ್ಯಂ ಸದಾ ಸೂತ್ರಂ ಯಥಾ ಕಾರ್ಯಂ ಕರೋತಿ ತಥೈವ ಅಸ್ಮಾಭಿಃ ಕಾರ್ಯಂ ಕರ್ತವ್ಯಂ ಯತ್ರ ಸೂತ್ರ ಯತ್ರ ಯತ್ರ ಅಸ್ಮಾಕಂ ಸೂತ್ರಸ್ಯ ಪ್ರವೃತ್ತಿಃ ನ ಭವತಿ ತದಾ ಸ ಸೂತ್ರಂ ಕಾರ್ಯಂ ನ ಕರೋತಿ ಇದಾನೀಂ ಜಲಾಂ ಜಸ್ಜಸಿ ಇತಿ ಸೂತ್ರಂ ಕಿಂ ಕರೋತಿ ಅಷ್ಟಮ ಅಧ್ಯಾಯಾತ್ ಆಗತ್ಯ ವದತಿ ಮಮ ಕಾರ್ಯಂ ಇದಾನೀಂ ಇದಾನೀಂ ಅತ್ರ ಮಮ ಕಾರ್ಯಮಸ್ತಿ ಸೂಧ್ ಇದಾನೀಂ ದ್ವಿತ್ವಂ ಕೃತಂ ದ್ವಿತ್ವೇ ತತ್ರ ಯರ್ ಝಶ್ವರ್ಣಃ ಅಸ್ತಿ ಅದಾನೀಂ ಜಲಾಂ ಜಸ್ಜಸಿ ಇತಿ ಸೂತ್ರಂ ಕಿಂ ಕರೋತಿ ಜಲಾಂ ಜಸ್ಜಸಿ ಇತಿ ಅತ್ರ ಪದತ್ರಯಂ ವಿದ್ಯತೆ ಜಲಾಂ ಇತಿ ಷಷ್ಠಿ ವಿಭಕ್ತಿ ಬಹುವಚನ ರೂಪಂ ಜಷಿತಿ ಪ್ರಥಮಾವಿಭಕ್ತಿ ಏಕವಚನ ರೂಪಂ ಝಷಿ ಇತಿ ಸಪ್ತಮಿ ವಿಭಕ್ತಿ ಏಕವಚನ ರೂಪಂ ಜಲಾಂ ಜಲಾಂ ಷಷ್ಠಿ ವಿಭಕ್ತಿ ಝಲ್ ವರ್ಣಾನಾಂ ಸ್ಥಾನೆ ಷಷ್ಠಿ ಸ್ಥಾನೆ ಯೋಗ ಇತಿ ಅಸ್ಮಾಭಿಃ ಜ್ಞಾತಂ ಯತ್ರ ಷಷ್ಠಿ ಭವತಿ ತದಾ ಸ್ಥಾನೆ ಯದಿ ಅನಿರ್ಧಾರಿತ ಸಂಬಂಧ ವಿಶೇಷ ಷಷ್ಠಿ ಸ್ಥಾನೆ ಯೋಗ ಬೋಧ್ಯ ಅತಃ ಇದಾನೀಂ ಜಲಾಂ ಇತ್ಯತ್ರ ಝಲ್ ವರ್ಣಾನಾಂ ಸ್ಥಾನೆ ಇತಿ ಆಗಚ್ಚತಿ ಝಲ್ ವರ್ಣಾನಾಂ ಸ್ಥಾನೆ ಕಿಂ ಭವತಿ ಝಲ್ ವರ್ಣಾನಾಂ ಸ್ಥಾನೆ ಝಸಿ ಪರೆ ಝಸಿ ಪರೆ ಜಶ್ವರ್ಣಃ ಯದಿ ಪರಃ ಭವತಿ ತದಾ ಜಶ್ ಆದೇಶಃ ಭವತಿ ಜಶ್ ನಾಮ ಅತ್ರ ಜಶೇವ ವಿಧೀಯಮಾನಃ ಝಲಾಂ ಜಶ್ ನಾಮ ಜಬಗಡ ದ ಝಸಿ ನಾಮ ಸಪ್ತಮಿ ವಿಭಕ್ತಿ ಅಸ್ತಿ ಸಪ್ತಮಿ ವಿಭಕ್ತೇ ಅರ್ಥ ಕಃ ಯದಿ ಸೂತ್ರೇ ಸಪ್ತಮೇ ವಿಭಕ್ತೌ ಕಶ್ಚಿತ್ ಪದಂ ವಿದ್ಯತೆ ಚೇತ್ ಕಂಚಿತ್ ಪದಂ ವಿದ್ಯತೆ ಚೇತ್ ತಸ್ಮಿನ್ ಇತಿ ನಿರ್ದಿಷ್ಟೇ ಪೂರ್ವಸ್ಯ ಇತಿ ಸೂತ್ರೇಣ ಅವ್ಯವಹಿತ ಪೂರ್ವಸ್ಯೈವ ಕಾರ್ಯಂ ಕರಣೀಯಂ ಸಪ್ತಮೀ ನಿರ್ದೇಶೇನ ವಿಧೀಯಮಾನಂ ಕಾರ್ಯಂ ಅತ್ರ ವಿಧೀಯಮಾನಂ ಕಾರ್ಯಂ ಕಿಂ ಜಶ್ ಕಾರ್ಯಂ ಜಶ್ ಕಾರ್ಯಂ ಕುತ್ರ ಕರಣೀಯಂ ಅವ್ಯವಹಿತ ಪೂರ್ವಸ್ಯ ಕರಣೀಯಂ ಇದಾನೀಂ ಅವ್ಯವಹಿತ ಪೂರ್ವಃ ಕುತ್ರ ವಿದ್ಯತೆ ಅತ್ರ ಪಶ್ಯತು ಪಶ್ಯಂತು ಸುಧ್ ಧ್ ಯು ಇತ್ಯತ್ರ ಝಲ್ ವರ್ಣಃ ಧಕಾರಃ ಝಲ್ ವರ್ಣಃ ಧಕಾರಃ ದ್ವಿತೀಯ ಧಕಾರಃ ಜಶ್ವರ್ಣಃ ಇದಾನೀಂ ಕುತ್ರ ಕಾರ್ಯಂ ಕರಣೀಯಂ ಜಶ್ವರ್ಣಃ ಪರ ಅಸ್ತಿ ಝಲ್ ವರ್ಣಂ ಪೂರ್ವೇ ಅಸ್ತಿ ಝಲಾಂ ಸ್ಥಾನೆ ಜಶ್ ಸ್ಯಾತ್ ಜಶ್ ನಾಮ ಚತುರ್ಥಾಕ್ಷರ ಚತುರ್ಥ ಇದಾನೀಂ ಜಶ್ ನಾಮ ಇದಾನೀಂ ಏತೇಷಾಂ ಪಂಚವರ್ಣಾನಾಂ ಸ್ಥಾನೆ ಕಃ ವರ್ಣಃ ಅಸ್ಮಾಭಿಃ ಕಸ್ಯ ವರ್ಣಸ್ಯ ಆದೇಶ ಕರಣೀಯಃ ಇತ್ಯುಕ್ತೆ ಸ್ಥಾನೆ ಅಂತರತಮಃ ಇತಿ ಪರಿಭಾಷೆ ಅತ್ರಾಪಿ ಕಿಂ ಆಗಚ್ಚತಿ ಧಕಾರಸ್ಯ ಲೃತುಲಸಾನಾಂ ದಂತಾಃ ತಥ ದ ಧ ನ ಇದಾನೀಂ ಧಕಾರಸ್ಯ ಕಿಂ ಸ್ಥಾನಂ ದಂತ್ಯಸ್ಥಾನಂ ಇದಾನೀಂ ಜಕಾರಸ್ಯ ಸ್ವೀಕರೋತು ತಾಳುಸ್ಥಾನಂ ವಕಾರಸ್ಯ ಓಷ್ಠಸ್ಥಾನಂ ಗಕಾರಸ್ಯ ಕಂಠಸ್ಥಾನಂ ಏವಂ ಮೂರ್ಧ ದಕಾರಸ್ಯ ದಂತಾಃ ದಂತ್ಯಸ್ಥಾನಂ ದಂತ್ಯಸ್ಥಾನಂ ತು ಅಲ್ಪಪ್ರಾಣ ದಕಾರಸ್ಯೈವ ಅಸ್ತಿ ಇದಾನೀಂ ದಂತ್ಯ ದಂತಯೋಃ ಸಾಮ್ಯಾತ್ ಅತ್ರ ಸ್ಥಾನ ಸಾಮ್ಯಮೇವ ಸ್ವೀಕ್ರಿಯತೆ ಕಿಂ ಭವತಿ ತರ್ಹಿ ಪೂರ್ವ ಧಕಾರಸ್ಯ ದಕಾರಃ ಭವತಿ ಝಲಾಂ ಜಸ್ಜಸಿ ಇತಿ ಸೂತ್ರಾನುಸಾರೇಣ ಏವಂ ಏತಾದೃಶ ಪರ್ಯಂತಂ ಅಸ್ಮಾಭಿಃ ಅಧೀತಂ ಸುಧ್ಯುಪಾಸ್ಯಃ ಇತ್ಯತ್ರ ಇದಾನೀಂ ಏತತ್ ದ್ವಿತ್ವಪಕ್ಷೆ ಅನಚಿಚ ಇತಿ ಸೂತ್ರಂ ಯದಾ ಪ್ರವೃತ್ತಿ ಅನಚಿಚ ಇತಿ ಸೂತ್ರಸ್ಯ ಪ್ರವೃತ್ತಿ ಯದಾ ಭವತಿ ತದಾ ಸೂತ್ರಸ್ಯ ಪ್ರವೃತ್ತಿ ಅನಚಿಚ ಇತಿ ಸೂತ್ರಸ್ಯ ಪ್ರವೃತ್ತಿ ಅನಂತರಂ ಝಲಾಂಜಸ್ಜಸಿ ಇತಿ ಸೂತ್ರಂ ಆಗಚ್ಚತಿ ವದತಿ ಮಮ ಕಾರ್ಯಮತ್ರ ಅಸ್ತಿ ಇದಾನೀಂ ಅಹಂ ಪೂರ್ವ ಧಕಾರಸ್ಯ ಮಹಾಪ್ರಾಣ ನಿಷ್ಕಾಸ್ಯ ಅಹಂ ಧಕಾರಂ ಕರೋಮಿ ಇತಿ ತರ್ಹಿ ಸುದ್ ಇತಿ ಸುದ್ ಧ ಯ ಉಪಾಸ್ಯಃ ಇತಿ ಇತಿ ಭವತಿ ಇದಾನೀಂ ಯದಾ ದ್ವಿತ್ವ ಅಭಾವಃ ಅಸ್ತಿ ಇದಾನೀಂ ಅನಚಿಚ ಇತಿ ದ್ವಿತ್ವಂ ತು ವಿಕಲ್ಪಃ ಅಸ್ತಿ ದ್ವಿತ್ವ ಅಭಾವಃ ಯದಾ ಅಸ್ತಿ ತದಾ ಸು ಧ ಯ ಉಪಾಸ್ಯಃ ಇತಿ ಅಸ್ತಿ ತತ್ರ ಝಲ್ ವರ್ಣೋ ವಾ जश् इति प्रत्याहारस्य वर्णः परः नास्ति. यद्यपि झल् वर्णः धकारः झल् वर्णः, जश् परकत्वं नास्ति तस्य, अतः किमपि परिवर्तनं नास्ति. अत्र सु झलां जश्जसि इति सूत्रं नैव आगच्छति. मम कार्यमत्र नास्ति इति सः सूत्रं वदति. अतः इदानीं किं भवति, तदा पुनः संयोगान्तस्य लोपः इति एकम् अन्यत् सूत्रं विद्यते. संयोगान्तस्य लोपः, संयोगः नाम किं, हलोऽनन्तरात् संयोगः, तत्तु अस्माभिः संज्ञाप्रकरणे एव दृष्टम्. अज्भिः अव्यवहिताः हलः संयोगसंज्ञाः स्युः. संयुक्ताक्षराणि, यत्र संयुक्ताक्षराणि अन्ते भवति, संयोगान्तं यत् पदं तस्य लोपः भवति इति सूत्रार्थः. संयोगान्तस्य इति षष्ठी विभक्ति एकवचनं, लोपः इति प्रथमाविभक्ति एकवचनं. पदद्वयं विद्यते अस्मिन् सूत्रे, अष्टमाध्यायस्य सूत्रमेतत्. एतदपि विधिसूत्रम् अस्ति. इदानीं संयोगान्तं नाम संयोगः अन्तः यस्य, तत् संयोगान्तम्. संयोगः नाम व्यञ्जनद्वयस्य संयोगः, व्यञ्जनद्वयस्य संयुक्ताक्षरवर्णः यत्र इति संयोगः इति उच्यते. संयोगः अन्तः यस्य, यस्य पदस्य, तत् संयोगान्तं पदम् इति उच्यते. संयोगान्तं यत्पदं किं भवति, संयोगान्तं यत्पदं तस्य लोपः भवति. कस्य लोपः, संयोगान्तस्य लोपः भवति. किन्तु इदानीं किं भवति, संयोगान्तस्य इति पदस्य विशेषणं कर्तव्यं भवति. संयोगान्तं यत्पदं तस्य लोपः स्यात् इति करणीयं भवति. इदानीं प्रश्नः इदानीम् आगच्छति, इदानीं संयोगान्तपदम् इति उच्यते. संयोगान्तं यत्पदं तस्य लोपः, तस्य लोपः नाम वर्णस्य लोपः वा, वर्णद्वयस्य लोपः वा, सम्पूर्णपदस्य लोपः वा इति नैव ज्ञायते. तदा किं क्रियते, सम्पूर्णपदस्यैव लोपः इति मत्वा सु ध ध यु इत्यत्र सम्पूर्णपदस्य लोपे कृते किं भवति, इष्टसिद्धिः न भवति. तदा अस्माभिः एतावत्पर्यन्तं यत् क्लेशमनुभूतं तस्य इष्टसिद्धिः न भवति. अतः किं भवति, अग्रिमसूत्रम् आगत्य कार्यं करोति. इदानीम् अलोन्त्यस्य इति अग्रिमसूत्रं विद्यते. अलोन्त्यस्य इति सूत्रं किं वदति, अलः अन्त्यस्य. अलः नाम अल् नाम सर्वे वर्णाः, प्रत्याहारे अकारादागत्य हल् प्रत्याहारपर्यन्तम् अल् सर्वे वर्णाः. इदानीम् अलः अलः नाम षष्टीनिर्दिष्टस्य अन्त्यस्य अलः आदेशः स्यात्. इदानीम् अन्त्यस्य अलः, यदा आदेशः आगमः लोपः यदा भवति तदा षष्टी षष्ट्यन्तस्य पदस्य स्थाने यः आदेशः विधीयते सः आदेशः षष्ट्यन्तस्य पदस्य अन्तिमवर्णस्थाने भवति. इदानीं संयोगान्तस्य लोपः, इदानीं लोपः अपि एकरूप आदेशः एव. लोप दि आब्सेन्स् आफ् ए लेटर् इस् नथिङ्ग् बट् इस् आल्सो एन् आदेश इन् डिफ्रेण्ट् टर्म्स्. इट् इस् द आदेश आफ् एन् अभाव. सी इफ् देर् इस् अ वि हेव् टु इन् लोप इस् सच् एन् आदेश वेर् वि हेव् टु थिङ्क् देट् नथिङ्ग् कम्स् देर् इस् नथिङ्ग् कम्स् सो अभावरूप आदेशः लोपः. लोपः अपि आदेशसदृश एव अभावरूप आदेशः. तद् किञ्चित् अग्रे स्पष्टं भवति. इदानीं किं भवति, इदानीं लोपः आदेशः इत्यादि कुत्र भवति इति अस्माकं सन्देहः. संयोगान्तं पदं, संयोगान्तं यत्पदं तस्य लोपः भवति चेत् समस्तपदस्यैव लोपः भवति वा, तर्हि अस्माभिः सुधि प्लस् उपास्यः इत्यत्र सुधि इति सुध्युपास्यः सुध्यु इति समस्तपदस्य लोपः भवति चेत् तत्र उपास्यः इति केवलम् उपास्य इति परवर्ण परपदस्य स्थित्या किमपि इष्टसिद्धिः न भवति, अतः अस्माभिः ज्ञायते सम्पूर्णपदस्य लोपः न भवति इति ज्ञायते, तत्तु ज्ञायते. परन्तु अलोन्त्यस्य इति सूत्रं किं करोति, परिभाषासूत्रमस्ति, एतदेव आगत्य वदति यदि किमपि कार्यं करणीयं चेत् षष्ट्यन्तस्य पदस्य स्थाने इदानीम् आदेशः करणीयः. कस्य स्थाने? प्रथमवर्णस्य वा, द्वितीयस्य वा, अन्त्यस्य वा, मध्यस्य वा इति प्रश्ने कृते षष्ट्यन्तस्य पदस्य स्थाने यः आदेशः विधीयते सः आदेशः षष्ट्यन्तस्य पदस्य अन्तिमवर्णस्य स्थाने एव भवति. इदानीम् उदाहरणार्थं संयोगान्तस्य य इत्यस्य स्थाने लोपादेशः प्राप्तः, इदानीं यकारस्य लोपः. इदानीं यकारस्य लोपः प्राप्यते चेत् इदानीं सूत्रं तु आगतम्, परन्तु अस्माभिः बहु कष्टेन ईकारस्य स्थाने यकारः स्थानसादृश्यात् चतुर्विधसादृश्यम् अधीत्य कस्य सादृश्यम् अस्माभिः अत्र स्वीकरणीयम् इति उक्त्वा स्थानसादृश्यमेव स्वीकरणीयम्, अत्र एवं सर्वं कृत्वा यकारस्य आदेशकरणीय कृते तर्हि यकारस्यैव लोपः भवति चेत् किम् अनेन इति अस्माभिः वक्तुं शक्यते. तदा किं भवति, एकं वार्तिकम् अग्रे आगच्छति, यणप्रतिषेधो वाच्यः. इदानीं संयोगान्तस्य पदस्य अन्तिम संयोगान्तस्य लोपः इति यदा भवति अन्तिमवर्णः यण् भवति चेत् संयोगान्तस्य लोपः इति सूत्रस्य प्रवृत्तिः न भवति. अन्तिमवर्णः यण् भवेत् संयोगान् यणः प्रतिषेधो वाच्यः इति वार्तिकम्. यणः इति षष्ट्यैकवचनं, प्रतिषेधः इति प्रथमैकवचनं, वाच्यः इति प्रथमैकवचनम्. इदानीं किं भवति, एतदपि वार्तिकं विद्यते, सूत्रं नैव, अतः तत्र सूत्रस्थसङ्ख्याः तत्र पार्श्वे न दृश्यन्ते. एतस्मिन् वार्तिके त्रीणि पदानि सन्ति, यणः प्रतिषेधो वाच्यः, यणः प्रतिषेधः वाच्यः. यणः नाम यण्वर्णस्य, प्रतिषेधः निषेधः वाच्यः, वक्तव्यं कुत्र कदा वक्तव्यम् इत्युक्ते संयोगान्तलोपः इति सूत्रे एतत् वार्तिकं पठितम्. अतः संयोगान्तस्य पदस्य अन्तिमवर्णः यदि यण् भवति तर्हि तस्य लोपः न भवति. यण् वर्णः भवति चेत् यण् नाम यकारः वकारः लकारः युर् लुव् रेफः अपि भवति. यदि एतेषु चतुर्षु वर्णेषु यः कोऽपि वर्णः भवति चेत् किं भवति, तस्य लोपः न भवति. अतः प्रकृतेन वार्तिकेन किं भवति, यकारस्य लोपः निषिद्धः भवति. यकारस्य लोपः केन सूत्रेण आगतम्, यकारस्य लोपः संयोगान्तस्य लोपः इति सूत्रेण आगतम्. संयोगान्तस्य लोपः इति कुत्र करणीयम् इति प्रश्ने कृते अलोन्त्यस्य इति सूत्रेण अन्त्यवर्णस्यैव करणीयम् इति आगतम्. अन्त्यवर्णः अत्र यकारः. यकारस्य इदानीं यकारस्य लोपे कृते तर्हि इष्टसिद्धिः न भवति. तत्र यकारादेशः शुद्ध्युपास्यः इत्यत्र शुद्धूपास्यः इति क्रियते चेत् तत्र दोषाय भवति इति यणप्रतिषेधो वाच्यः इति वार्तिकं वदति. इत्युक्ते यदि अन्तिमवर्णः यण् भवति चेत् संयोगान्तस्य लोपः न भवति, लोपः न भवति. एवं किम् अभवत् इदानीं लोपः न भवति सुद् ध उपास्यः इत्यत्र दकारः अल्पप्राणदकारः महाप्राणधकारः उपास्यः इति एकं रूपम्. इदानीं द्वित्वेन कृते तत्रापि लोपः न भवति शुद्ध्युपास्यः इति रूपद्वयमागतम्. एवमेव मधु प्लस् अरिः इत्यत्र मध्वरिः मध्वरिः इति रूपद्वयम्. धातृ प्लस् अंशः इत्यत्र धात्रंशः धात्रंशः इति रूपद्वयम्. लाकृतिः इत्यत्रापि रूपद्वयम् आगतम्. इदानीं शुद्ध्युपास्यः इति उदाहरणस्य सङ्ग्रहः मया उच्यते. एतदेव इदानीम् एकस्यैव उदाहरणस्य एतानि सूत्राणि एतावन्ति सूत्राणि आगतानि. इदानीं सर्वैः सर्वे तत्र कृपया सावधानतया शृण्वन्तु एतदेव एक्सिक्यूटिव् समरी इति इदानीं त्रिंशत् स्लैड् मध्ये यदुक्तं यत् एकेन स्लैड् मध्ये उच्यते सुधी प्लस् उपास्यः इति उदाहरणस्य प्रक्रिया अस्माभिः साधनीया कति रूपाणि भवन्ति संहितायां सत्यां संहितायाम् इति अधिकारः षष्टाध्याये विद्यते संहितायाम् इति अधिकारे इको यणचि इति सूत्रेण इको यणचि इति सूत्रस्य विषयः भवति सुधी उपास्यः इति उदाहरणम् इको यणचि इति सूत्रस्य विषयो भवति संहितायाम् इति सूत्रानुसारेण इति अधिकारं स्वीकृत्य इदानीं संहिता सत्याम् इक् स्थाने यण् स्यात् अचि संहितायाम् इति सूत्रार्थः इदानीं संहिता नाम संहिता इत्युक्ते किम् इत्युक्ते परसन्निकर्षसंहिता यत्र सामीप्यम् अधिकं विद्यते तदा एव संहिता भवति यदा संहिता भवति तदा वर्णव्यत्ययः भवति स एव सन्धिः इति उच्यते इति अस्माभिः ज्ञातं परसन्निकर्षसंहिता इति सूत्रस्यापि प्रवृत्तिः इदानीम् इकः इति इक् नाम अस्माभिः किं गृह्यते इत्यनेन अणुवित्सवर्णस्य चाप्रत्ययः इत्यनेन यदि अभिधीयमानः भवति चेत् अष्टादशभेदाः यदि सन्ति चेत् अष्टादशभेदाः स्वीक्रियन्ते तदा इक् नाम के के वर्णाः इत्युक्ते आदिरन्त्येन सहेत इति आदिः अन्त्येन सह आदिः अन्त्येन इता सह प्रत्याहार निर्माणं भवति माहेश्वरसूत्रेषु तेन इक् नाम ईवूरुर् वर्णाः स्वीक्रियन्ते एवं एतस्य सूत्रमपि साहाय्यं करोति एवं तुल्यास्य प्रयत्नम् असवर्णे अचिपरे एव भवति तुल्यास्य प्रयत्नं सवर्णं सवर्णं नाम किम् इत्युक्ते आस्य प्रयत्नं आस्यं च प्रयत्नं च यस्य मितः तुल्यं भवति स एव सवर्ण तौ एव परस्पर सवर्ण संज्ञकौ वर्णौ इति उच्येते इदानीं सुधी प्लस् उपास्यः इत्यत्र किम् आगतम् इको यणचि इति सूत्रेण इकस्थाने यन् स्यात् इति षष्टिस्थाने योगा इत्यनेन इकः स्थाने इति आगत्य तस्मिन्निति निर्दिष्टे पूर्वस्य इति सूत्रेण वर्णान्तरेण अव्यवहित पूर्वस्यैव कार्यं करणीयम् इति आगते स्थानेऽन्तरतमः इति सूत्रेण कस्य ईकारस्य स्थाने चत्वारः आदेशाः यदा आगच्छन्ति तदा स्थाने अन्तरतमः इति सूत्रेण स्थानतः अन्तरतम्यात् ईकारस्य यकारादेशः सम्पन्नः यदा यकारादेशः सम्पन्नः तदा अनचि च इति द्वित्वमपि सम्पन्नम् अचः परस्य यरः द्वे वा स्तः न तु अचि इति द्वित्वं सम्पन्नम् एवं धकारस्य द्वित्वं भवति द्वित्वे द्वित्वाभावे अनचि च इति वैकल्पिकं सूत्रमेतत् द्वित्वाभावे शुद्ध्युपास्यायति इत्येव तिष्ठति एवं द्वित्वे कृते झलाञ्झषि इति सूत्रम् आगच्छति जलाञ्झषि इत्येन पूर्वधकारस्य दकारः एवं पुनः द्वित्वाभावे तु स एव रूपः संयोगान्तलोपः इति उभयत्रापि प्राप्तिः द्वित्वाभावे द्वित्वभावे अपि तदा किं भवति यकारस्य लोपः कदाचित् यकारस्य लोपे प्राप्ते यणः प्रतिषेधो वाच्यः इति वार्तिकमागत्य वदति लोपं करोति वा अत्र मा करोतु कृपया मा करोतु यदि अन्तिमवर्णः यकारः अस्ति तदा नैव करणीयं लोपः नैव करणीयः इति यणः प्रतिषेधो वाच्यः इति वार्तिकमागत्य अस्मान् प्रतिषिध्यति तदा किं भवति अस्माभिः यकारस्य लोपः नैव क्रियते शुद्ध्युपास्यः इति रूपद्वयं सिद्धं भवति एतावत्पर्यन्तं सर्वैः अवगतं वा अत्र संयोगान्तं पदं किम् संयोग मया मीना भगिनी संयोगांतम पदम नाम संयोगांतम पदम नाम सुध्यु सम्यक अवगतम सम्यक अवगतम अस्तु इदानीं पुनः अत्र आगमिष्यामः मध्वरिः इत्यत्र इदानीं मधु प्लस अरिः मध्वरिः मध्वरिः इत्यस्य कथं भवति इति पश्यामः मधु प्लस अरिः इत्यत्रापि मधु ऊकारस्य स्थाने अरिः तत्र षष्ठी स्थाने योगा इत्यत्र मधु इत्यत्र धकारोत्तर ऊकारस्य स्थाने एव आदेशः एवमेव तस्मिन्निति निर्दिष्टे पूर्वस्य इति अव्यवहितपूर्वस्यैव आदेशः स्थाने अन्तरतमः इत्यनेन ऊकारस्य वकारः एवं मध्वरिः इति आगच्छति डैरेक्ट् रूपम् अनचिचा इति सूत्रस्य प्रवृत्तिः यदि भवति चेत् मा मधु धकारस्य द्वित्वं तदनन्तरं जलाञ्जस्यसि इति पूर्वधकारस्य दकारः एवं मध्वरिः इति भवति मध्वरिः इति रूपद्वयं भवति एवमेव धात्रंशः इत्यादि भवति तत्र अजहीनं परेण संयोज्यम् इति लिपिनियमम् अस्ति सुद् ध यु इदानीं यकारः अजहीनः अस्ति अतः परेण संयोज्य युपास्यः इति भवति इदानीं कृपया मध्वरिः धात्रंशः लाकृतिः लृ प्लस् आकृतिः मध्वरिः धात्रंशः इत्यस्य एवमेव ओरली तत्र मौखिकरीत्या एतादृशसूत्रस्य मौखिकरीत्या उच्चारणं कृत्वा कृपया अभ्यासं कुर्वन्तु यदि सन्देहः नास्ति चेत् अत्रैव समापयामः अग्रिमकक्षायां यचोयवायवः इत्यादि सूत्रं पश्यामः मध्वरिः किं सन्धिः मधु प्लस् अरिः मध्वरिः यण्सन्धिः एव यण्सन्धेः एव उदाहरणम् Thank you.